ಶ್ರೇಯಸಿ ಕೇಶವ ಸರ್ವೇಭ್ಯಃ ರಾಮ್ ರಾಮ್ ರಾಮ್. ಗುರುಂ ಗಣಪತಿಂ ಆಚಾರ್ಯಾನ್ ಮಾತಾಪಿತೃನ್ನತ್ವಾ ಅದ್ಯತನ ಕಕ್ಷ್ಯಾಂ ಪ್ರಾರಂಭಂ ಕುರ್ಮಃ. ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಚರ್ಚಾಯಾಂ ವಯಂ ಸರ್ವೇ ಆಸನ್. ತತ್ರ ತ್ರಿಂಶತ್ ಶ್ಲೋಕ ಪರ್ಯಂತಂ ಅಸ್ಮಾಭಿಃ ಚರ್ಚಿತಮಸ್ತಿ. ಕಥಂ ತಾವತ್ ಕರ್ಮಯೋಗಸ್ಯ ಮಾಹಾತ್ಮ್ಯಂ, ಕರ್ಮ ಆಚರಣ ಕಿಮರ್ಥಂ ಕರ್ತವ್ಯಂ, ಸಿತಪ್ರಜ್ಞೈರಪಿ ತತ್ರ ಯೇ ಸಾಕ್ಷಾತ್ಕೃತಃ ಜ್ಞಾನಿನಃ ಅಪಿ ಕಿಮರ್ಥಂ ಕರ್ಮ ಆಚರಂತಿ, ಸ್ವಯಂ ಶ್ರೀಕೃಷ್ಣಃ ಕಿಮರ್ಥಂ ಕರ್ಮಾಚರಣಂ ಕರೋತಿ, ಕಥಂ ಲೋಕಃ ಶ್ರೇಷ್ಠಾನ್ ಜ್ಞಾನಿನಃ ತಾನ್ ಅನುಸರತಿ ಇತ್ಯಾದಿಕಂ ಸರ್ವಂ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಸ್ತಿ. ಏಕವಾರಂ ಪೂರ್ಣತಯಾ ಅಪಿ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಮಾಸೀತ್ ಕಥಂ ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಚತುರ್ಥ ಶ್ಲೋಕಾದಾರಭ್ಯ ಏಕೋನತ್ರಿಂಶತ್. ಫ್ರಮ್ 4 to 29 ವಿ ಡಿಡ್ ಎ ಕ್ವಿಕ್ ರೀಕ್ಯಾಪ್ ಆಲ್ಸೋ. ಶ್ಲೋಕ ನಂಬರ್ 30 ಅಸ್ಮಾಭಿಃ ಸ್ವೀಕೃತಮಾಸೀತ್. ಮಯಿ ಸರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಸನ್ಯಸ್ಯ ಅಧ್ಯಾತ್ಮಚೇತಸಾ ನಿರಾಶೀಹಿ ನಿರ್ಮಮೋ ಭೂತ್ವಾ ಯುದ್ಧಸ್ವ ವಿಗತಜ್ವರಃ. ಸರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಮಯಿ ಸನ್ಯಸ್ಯ, ಸರ್ವಂ ತಾವತ್ ತತ್ರ ಸನ್ಯಸ್ಯ ಇತಿ ಉಕ್ತಮಸ್ತಿ. ವಿವೇಕ ಬುದ್ಧ್ಯಾ ಭೃತ್ಯವತ್ ಅಹಂ ಈಶ್ವರಾಯ ಕರ್ತಾ ಇತಿ ಅನಯಾ ಬುದ್ಧ್ಯಾ ಕರ್ಮ ಕರ್ತವ್ಯಂ. ಸರ್ವದಾ ಹೌ ವಾಟ್ ಇಸ್ ದ ಅಧ್ಯಾತ್ಮಚೇತಸ ಮಯಿ ಸರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಸನ್ಯಸ್ಯ. ವಿವೇಕ ಬುದ್ಧ ಪ್ರಥಮಂ ತಾವತ್ ನಿತ್ಯಾನಿತ್ಯ ವಸ್ತು ವಿವೇಕತಾ ಅವಶ್ಯಕಿ. ನೆಕ್ಸ್ಟ್ ಇಸ್ ಭೃತ್ಯವತ್ ಲೈಕ್ ಅ ಸರ್ವೆಂಟ್ ಹೂ ಈಸ್ ಆಕ್ಚುಲಿ ಡೂಯಿಂಗ್ ದ ವರ್ಕ್ ಫಾರ್ ಹಿಸ್ ಮಾಸ್ಟರ್. ನಾಟ್ ಬೀಯಿಂಗ್ ದ ಓನರ್ ಆಫ್ ದ ವರ್ಕ್ ಆರ್ ದ ವಸ್ತು ಯದಾ ವಯಂ ಕಾರ್ಯಂ ಕುರ್ಮಃ ತದಾ ತತ್ರ ಡಿಟ್ಯಾಚ್ಮೆಂಟ್ ಅಪಿ ಭವತಿ. ಅಪಿ ಚ ಯದಾ ಭೃತ್ಯವತ್ ಕಾರ್ಯಂ ಕುರ್ಮಃ ತದಾ ತತ್ರ ಕಾರ್ಯಂ ಅತೀವ ಶ್ರದ್ಧಯಾ ನಿಷ್ಠಯಾ ಚ ವಯಂ ಕುರ್ಮಃ. ಏವಂ ವಿವೇಕ ಬುದ್ಧ್ಯಾ ಭೃತ್ಯವತ್ ಅಹಂ ಈಶ್ವರಾಯ ಕರ್ತಾ ಭವಾಮಿ ಇತಿ ಅನಯಾ ಬುದ್ಧ್ಯಾ. ದಟ್ ಇಸ್ ದ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ಆಫ್ ದ ವರ್ಡ್ ಅಧ್ಯಾತ್ಮಚೇತಸ. ಮಯಿ ಸರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಮಯಿ ಮಯಿ ಇನ್ಮಿ ಇನ್ ಹೂ ಯದಿ ಮಯಿ ಇತ್ಯುಕ್ತೆ ಕಸ್ಮಿನ್ ವಾಸುದೇವೇ ಪರಮೇಶ್ವರೇ ಸರ್ವಜ್ಞೇ ಸರ್ವಾತ್ಮನಿ. ವಾಸುದೇವೇ ವಾಸುದೇವೇ ವಿ ಹವ್ ಸೀನ್ ದ ವರ್ಡ್ ವಸ್ ಆಚ್ಛಾದನೆ ತತ್ರ ಸರ್ವವ್ಯಾಪಕತ್ವೇ ಅಪಿ ಒನ್ ಹೂ ಇಸ್ ಪ್ರೆಸೆಂಟ್ ಎವ್ರಿವೇರ್ ವಾಸುದೇವಃ. ವಾಸುದೇವಃ ಯಹ ಸರ್ವತ್ರ ಸರ್ವವ್ಯಾಪಕತ್ವೇನ ವಿಷ್ಣುತ್ವೇನ ಯಹ ತತ್ರ ಭವತಿ ಸಹ ವಾಸುದೇವಃ. ಪರಮೇಶ್ವರಃ ಏಷಃ ಏಕಃ ಏವ ಪರಮೇಶ್ವರಃ. ಸರ್ವಜ್ಞಃ ಶ್ರೀಕೃಷ್ಣಂ ಪರಬ್ರಹ್ಮಾಣಂ ವಿಹಾಯ ತಂ ತ್ಯಕ್ತ್ವಾ ಅನ್ಯಃ ಕೋಪಿ ಸರ್ವಜ್ಞಃ ನಾಸ್ತಿ. ನಹಿ ಸರ್ವಃ ಸರ್ವಂ ಜಾನಾತಿ ಕೇವಲಂ ಪರಮಾತ್ಮ ಭಗವಾನ್ ಪರಬ್ರಹ್ಮ ಸಹ ಏವ ಸರ್ವಜ್ಞಃ ಭವತಿ. ತಾದೃಶ ಸರ್ವಜ್ಞೆ ಸರ್ವಾತ್ಮನಿ ಪರಮಾತ್ಮನಃ ಜೀವಾತ್ಮನಃ ಸರ್ವೇಷಾಮಪಿ ಆಧಾರಭೂತತ್ವೇನ ಸಂಕಲನತ್ವೇನ ಯಹ ವರ್ತತೆ ತಾದೃಶ ಸರ್ವಾತ್ಮನಿ ಮಯಿ ವಾಸುದೇವೇ ಸರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಸನ್ಯಸ್ಯ ನಿಕ್ಷಿಪ್ಯ. ಫಸ್ಟ್ ಡೂಯಿಂಗ್ ದ ವರ್ಕ್ ಆಸ್ ಅ ಸರ್ವೆಂಟ್ ಆಸ್ ಇಫ್ ದಟ್ ಸಂಬಡಿ ಅದರ್ ಪರ್ಸನ್ ಹ್ಯಾಸ್ ಗಿವನ್ ದ ಡ್ಯೂಟಿ ಟು ಅಸ್ ಅಂಡ್ ವಿ ಆರ್ ಡೂಯಿಂಗ್ ಇಟ್ ವಿತ್ ತಾದೃಶ ಶ್ರದ್ಧೆಯಾ ಕರ್ತವ್ಯಂ. ಅನಂತರಂ ಕರ್ಮ ಫಲಾಚರಣಮಿ ಸರ್ವಂ ತಾವತ್ ವಾಸುದೇವೇ ಅರ್ಪಣಂ ಕೃತ್ವಾ ಯದಾ ಯಃ ಕೋಪಿ ಪುರುಷಃ ನಿರಾಶೀಹಿ ತ್ಯಕ್ತಾಶಾ ನಿರ್ಮಮಃ ನಿರ್ಗತಃ ಮಮ ಭಾವಃ ಯಸ್ಯ ಸಹ ಸಹ ನಿರ್ಮಮಃ ಭೂತ್ವಾ ವಿಗತಜ್ವರಃ. ಜ್ವರಃ ಜ್ವರಃ ಇತ್ಯುಕ್ತೆ ಸಂತಾಪಃ ಶೋಕಃ. ವಿಗತ ಸಂತಾಪಃ ವಿಗತ ಶೋಕಃ ಭೂತ್ವಾ ಯಃ ಕಾರ್ಯಂ ಕರೋತಿ ಸಹ ಏವ ಶ್ರೇಷ್ಠಃ. ತಾದೃಶರೀತ್ಯಾ ತ್ವಂ भूत्वा युध्यस्व हे अर्जुन इति कृष्णः अर्जुनं प्रति वदति। एतत् अस्माभिः दृष्टमासीत्। 31 and 32 अतीव सरलं वर्तते, अस्माभिः अपि तत्र प्रवेशः कृतः अस्ति। श्लोका नंबर 31, 32 आपोजिट्स भवति। एकवारं श्लोकं पठतु, तत्र अतीव सरलो वर्तते, अस्माभिः ज्ञातुं शक्यते। 31 and 32 ऑफ थर्ड चैप्टर एकवारं स्वीकुरुन्तु। सी हाउ दे आर मिररिंग ईच अदर। ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः श्रद्धावन्तो अनसूयन्तो मुच्यन्ते तेपि कर्मभिः। दिस इज फॉर 31, 32 पश्यन्तु। ये त्वे ददभ्यसूयन्तो न अनुतिष्ठन्ति मे मतं सर्वज्ञान विमूढांस्तान् विद्धि नष्टान् अचेतसः। अत्र ये मानवाः नित्यं मे मतं अनुतिष्ठन्ति, 31, ये मे मतं न अनुतिष्ठन्ति, 32, वेरि क्लियर् अस्ति, अतीव सरलो वर्तते। उपरि उक्तं सर्वं श्लोका 4, श्लोका 3 अपि स्वीकर्तुं शक्यते, श्लोका 3 to 30 यत् उक्तमस्ति पूर्वतया, यत् उक्तमस्ति तत् एव श्रीकृष्णस्य मतम्। ये इदं मतं, ये मानवाः इदं मतं नित्यमनुतिष्ठन्ति तेषां किं भवति इति 31 मध्ये उक्तमस्ति। ये मानवाः अचेतसः, अचेतसः इत्युक्ते मूढाः, ये मूढाः भवन्ति, ये मे मतं न अनुतिष्ठन्ति तेषां किं भवति इति 32 मध्ये लिखितं। तावदेव पश्यामः, 31 प्रथमतया पश्यामः। ये मानवाः अनसूयन्तः, अनसूयन्तः तत्र अनसूयन्तः इत्यस्य असूया च, असूया कुर्वन्तः, अपि च मयि गुरौ वासुदेवे अकुर्वन्तः, तत्र श्रद्धारहिताः इति स्वीकर्तुं शक्यन्ते। कस्मिन्? मयि गुरौ वासुदेवे। तत्र शाङ्करभाष्यं पश्यामश्चेत् वाट् दिस् अश्रद्धा टुवर्ड्स् हू आल् इफ् इट् इस् टेकन् इन् मी, इन् द श्रीकृष्ण परब्रह्म हू हेस् गिवन् अस् दिस् भगवद्गीता, दोस् हू डु नाट् हेव् एनी श्रद्धा एण्ड् इण्ट्रेस्ट् एण्ड् अन्क्याविलिङ्ग्, दोस् हू आर् वेरि वेरि अन्क्याविलिङ्ग् टुवर्ड्स् मी एण्ड् थर्टि वन् मध्ये स्वीकरोति चेत् अनसूयन्तः इति स्वीकर्तव्यम्, असूया रहिताः इति स्वीकर्तव्यम्। तत्र असूया रहिताः ये भवन्ति, मयि गुरौ वासुदेवे असूयाम् अकुर्वन्तः, दट् इस् दोस् हू आर् वेरि वेरि श्रद्धा सहिताः, इण्ट्रेस्टेड् वितौट् एनी जेलसी वित् टुवर्ड्स् अदर् ह्यूमन् बीङ्ग्स्। कदा तत्र अदर् ह्यूमन् बीङ्ग्स् मध्ये जलसि नागच्छति? It is a very simple question but a very very important concept. Why the word asuya is used? Because asuya is actually one parameter through which you can realize whether that person has got the nityanitya vastu vivekata. Why? Because when will asuya come? When will you have jealousy? When we are seeing ourselves or our family different from the neighboring family or the neighboring person. When we see that this the jivatma is here, there also it is only atma and we are all one and finally we have to merge with the paramatma. When the bhavana of yatra vishvam bhavat yekanidam, the world is after all one small nest, that is the Upanishad vakya, vasudhaiva kutumbakam iti smriti vakyam, the whole world is my family iti smriti vakyam yada janaha tatra anusaranti, and when they have got, when they have realized that advaitatva, that is the non-duality between ourselves and the world around, tada asuya nagachati. So asuya is actually the external parameter through which somebody can మెజర్ ద ఇంటర్నల్ రియలైజేషన్ నెస్ ఆఫ్ సమ్ పర్సన్ విచ్ ఇస్ వై అనసూయంతః ఏ మానవాః అసూయాం నకుర్వంతః కస్మిన్ ఇన్ హోమ్ మయి గురౌ వాసుదేవే సర్వేషు అపి శ్రద్ధావంతః విత్ ఎక్స్ట్రీమ్ శ్రద్ధా ఫెయిత్ శ్రద్ధా ఇస్ వన్ ఆఫ్ ద బేసిక్ క్యారెక్టరిస్టిక్స్ ఆఫ్ ఎనీ సాధక సమ్ బేసిక్ లెవెల్ ఆఫ్ ఫెయిత్ ఇన్ ద శ్రుతివాక్య స్మృతివాక్య జ్యేష్ఠానాం వాక్యేషు గురువాక్యేషు యదా భవతి దట్ ఇస్ వెన్ అ సాధక కెన్ యాక్చువల్లీ స్టార్ట్ హిస్ జర్నీ ఆఫ్ సాధన నో చేత్ యదా శ్రద్ధా నాస్తి చేత్ సాధనాం కర్తుం నహి శక్యతే ఏవం అనసూయంతః శ్రద్ధావంతః మే ఇదం మతం నిత్యమనుతిష్ఠంతి దోస్ హూ ఫాలో ఇట్ ఎవ్రీడే యత్ పూర్వం యత్ సర్వముక్తం కర్మణ్యేవ అధికారః ఫలేషు అధికారః నాస్తి యోగః కర్మషు కౌశలం సదా యే యే జ్యేష్ఠాః సంతి యద్యద్ ఆచరతి శ్రేష్ఠాః తత్తదేవేతరో జనః ఏతత్ సర్వం ఉపరి సర్వం ముక్తం తత్ సర్వం ఏ నిత్యం అనుతిష్ఠంతి నిత్యం సర్వదా సర్వథా సర్వశః ఇన్ ఆల్ సిచ్యువేషన్స్ ఇన్ ఆల్ ప్లేసెస్ ఇన్ ఆల్ టైమ్స్ నిత్యం డస్ నాట్ ఓన్లీ మీన్ ఎవ్రీడే మార్నింగ్ వన్స్ డైలీ ఇట్ ఇస్ ఎవ్రీ టైమ్ ఆల్వేస్ సదా ఎవ్రీ సెకండ్ అపి శ్రద్ధదానాః అనసూయాంతః భూత్వా ఏ తత్ర అనుతిష్ఠంతి తే అపి కర్మభిః ముచ్యంతే ఇఫ్ దే ఫాలో ఆల్ దిస్ దెన్ కర్మ బంధనైః కర్మ విపాకైః యత్ భవతి తత్ర సత్కర్మభిః వా దుష్కర్మభిః యత్ సర్వం తత్ర అజ్ఞాన రీత్యా యత్ సర్వం ఆచరితం భవతి తేన తే సర్వే ముచ్యంతే దే ఆర్ released from that from the karma bandhana dharma dharmakhyaihi karma bandhanaihi muchyante that is shankara bhashya dharma adharma akhyaihi karma bandhanaihi te muchyante this is 31 what does 32 say ye manavaha abhyasuyantah asuyam swikritya samshayam swikritya అశ్రద్ధయ నాట్ బిలీవింగ్ హ్యావింగ్ డౌట్స్ ఇన్ ద వర్డ్స్ మే ఇదం మతం ననుతిష్ఠంతి తాన్ అచేతసః సర్వజ్ఞాన విమూఢాన్ నష్టాన్ విద్ధి వి హావ్ ఆల్సో సీన్ సంశయాత్మా వినశ్యతి వన్ హూ కీప్స్ ఆల్వేస్ హ్యావింగ్ డౌట్స్ తత్ర అశ్రద్ధయ తత్ర జ్ఞాన అర్జన రీత్యా సంశయాః భవంతి చేత్ తత్ శ్రేయసే భవతి పరం వన్ హూ హ్యాస్ డౌట్స్ ఇన్ ద శ్రద్ధ ఇన్ ద బిలీఫ్ ఆఫ్ ద ఆల్మైటీ ఆర్ ద శ్రుతివాక్య స్మృతివాక్య తత్ర తావత్ తే సర్వే నష్టాః భవంతి నష్టాః ఇర్రిపేరబుల్ లాస్ట్ అచేతసః దోస్ హూ ఆర్ ఫూల్స్ సర్వజ్ఞాన విమూఢాః దోస్ హూ ఆర్ డిల్యూడెడ్ ఇన్ ద మ్యాటర్ ఆఫ్ ఆల్ నాలెడ్జ్ అపిచ నష్టాః భవంతి ఏవం తత్ర శాంకర భాష్యం పశ్యామశ్చేత్ తద్విపరీతాః మమ మతం యే తత్ర అభ్యసూయంతః మమ మతం న అనువర్తంతే సర్వేషు జ్ఞానేషు వివిధం మూఢాః తే నాశం గతాన్ అచేతసః అవివేకినః విద్ధి దట్ ఇస్ వాట్ హస్ బీన్ క్లియర్లీ టోల్డ్ శ్లోక నంబర్ 33 స్వీకుర్మః సదృశం చేష్టతే స్వస్యాః ప్రకృతేర్ జ్ఞానవానపి ప్రకృతిం యాంతి భూతాని నిగ్రహః కిం కరిష్యతి అ సిమిలర్ శ్లోక వి హావ్ సీన్ ఇన్ ద ప్రీవియస్ తత్ర శ్లోక నంబర్ 5 యా 6 ఇతి మన్యే తత్ర కేవలం మిథ్యాచారాః కే భవంతి ఇతి తత్ర అస్మాభిః పూర్వం దృష్టమస్తి అగైన్ వి విల్ రీడ్ ది శ్లోక శ్లోక నంబర్ 33 ఏకవారం పఠంతు అన్వయమపి పశ్యంతు సదృశం చేష్టతే స్వస్యాః ప్రకృతేర్ జ్ఞానవానపి ప్రకృతిం యాంతి భూతాని నిగ్రహః కిం కరిష్యతి Arjuna is again going to ask a similar question in 36, shloka number 36. A very very simple question which all of us have. First, the same questions Arjuna just represents us. First, the question which we always ask, instead of karma, I will take bhakti marga or jnana marga. Without doing karma, can I get jnana? Clearly, Krishna said, no. You have to take your medicine till your disease is cured. Then we can test and then we can see if you don't need medicine. So the dosages, whatever is there, that is the karma which we have to do at regular intervals. So we get chitta shuddhi, nishkamyata we get, and then we are cured of all the samsarika diseases. Then we can get the jnana and bhakti marga we can do. Then we can stop doing karma. Clear answer. It is all good, Krishna. We understand all this. We understand Viveka. We understand Viveka, Vairagya. Sarvam vayam janimaha. Param tathapi kim bhavati. Anichannapi varshneya baladiva niyojitaha. 36, that is what Arjuna asks. Even after having known all this and after even wanting to practice all this, somehow we are forcibly pulled back to the samsarika nature. We are pulled back to the samsara bandhana. We are pulled back into the asha pasha of the samsara. Why does that happen and how does that happen? So, before itself there is a cautionary. That is, he is going to ask it in 36, but already in 33 he gives that answer. Tatra Shankara Bhashyam Katham Bhavati Iti Kripaya Shrinvantu. Shankaracharya, he gives a prelude to every shloka. There he says, Kasmat Karanat Twadiyam Matam Na Nutishthanti. Why will people not follow it? See, if there is a Shreyas, if something good is going to happen to people out of this, and they are going to be released out of Karma Vandana, then they should follow it. No. If somebody is not following it, why he will not follow it? Kimartham tavat paradharmam anutishtanti swadharmam nanuvartante tvat pratikulaha katham tvat shasana atikrama doshat na bibhyati. How does he not fear overriding your rules which are being put by you? Why does he not get a fear of overriding the rule? Why does he not follow it? Kimartham tavat nakurvanti iti prishte sati. Shloka number 32 uktam bhavati. Sadrisham cheshtate swasyaha prakriter jnanavanapi prakritim yanti bhutani nigraha kinkarishyati. Evam bhutani prakritim yanti is the first sentence. Bhutani sarvada swa prakritiritya acharanti. Prakriti swa Purva Vasanaya, Swa Karmacharana Ritya, Swa Gunanusarena, Evam Sarvam Svikartum Shakyate Tatra. Prakritim Yanti, Bhutani, Prakritim Yanti. Prakriti, again, what is the definition? Shankara Bhashye, Prakritihi Nama, Purva Krita Dharma Dharmadi Samskaraha, Vartana Janmadau Abhivyaktaha Sa Prakritihi, Tasyaha sadrisham eva sarvo jantuhu. So, purva krita dharma dharmadi samskaraha. Whatever is the vasana, the purva vasana which we have. So, let us say prakritya, which is why lot of people also tell, yada yakkopi kinchite bhinnaritya tatra vartanam karoti chete purva janmani kim bhavan tatra pranivat asidva tatra shvanavat asidva evam tatra kimartam tatra sarvada bhashanam karoti iti te prichanti. Evam prakritim yanti purva krita dharma dharmadi samskaraha asmin janmani api adyatana paryantam yadrisha ritya tatra vartana krita asti. Which is why agre uchyate chaturvarnyam maya srishtam guna karma vibhagashah. So there is one level of inherent qualities which are there already in the samskar of a person. Tatra purva janma samskareshu paschatyaha tatra tadrsharitya te vishwasam nakurvanti. Tasmin madhye eka lagu prasangaha lagu katha asti. Tatra ekavaram asmakam काञ्ची जगद्गुरु समीपे एकः पाश्चात्यः गतवान् सः उक्तवान् एतत् पूर्वजन्मं किमपि नास्ति तस्मिन् मध्ये तत्र पूर्वजन्म आचरित कर्माकर्मफलं तत्सर्वं किमपि नास्ति तत् कथं वर्तते ऐ बिलीव् आल् द अदर् थिङ्ग्स् उपेशा विच् यु टेल् बट् ऐ एम् नाट् एबल् टु गेट् द बिलीव् दट् देर् इस् सम् ओल्ड् बेगेज् विद् विच् पीपल् आर् बोर्न् देर् इस् सम् कण्टिन्युशन् बिट्वीन् अ प्रीवियस् जन्म ऐ डोण्ट् बिलीव् इन् इट् दट् वास् द क्वशन् विच् ही आस्क्ड् अवर् काञ्ची जगद्गुरु जस्ट् सेण्ट् हिम् तत्र कृपया गच्छन्तु अद्य प्रातः टुडे लेट् अस् से इस् 30th October 2012 वा तत्र US मध्ये 29th October अस्ति अस्मिन् समये जस्ट् गो सी द गो टु आल् द हास्पिटल्स् इन् द लास्ट् वन् अवर् टेक् अ कौण्ट् आफ् आल् द पीपल् द चिल्ड्रन् हू आर् बार्न् सर्वं तावत् तेषां केरेक्टरिस्टिक्स् सर्वं स्वीकृत्य आगच्छन्तु इति सः वदति एषः गच्छति ही गोस् टु आल् द हास्पिटल्स् सर्वत्रापि गच्छति ही टेक्स् अ लिस्ट् आफ् 15-20 चिल्ड्रन् हू आर् बार्न् इन् दट् टैम् तदा जगद्गुरवः पृच्छन्ति वदतु डीटेल्स् वदतु सः वदति एकः तत्र फस्ट् आफ् आल् देर् आर् सम् आर् बार्न् मेल् सम् फीमेल् सम् आर् बार्न् डार्क् सम् आर् बार्न् फेर् सम् विद् सम् डिफ्रेण्ट् केरेक्टरिस्टिक्स् डिफ्रेण्ट् प्राब्लम्स् सम् हाव् सम् डिसीजस् सम् डु नाट् हाव् डिसीजस् सम् आर् बार्न् हेल्ति सम् आर् बार्न् अन्हेल्ति सम् आर् स्टिल् बार्न् एवं तत्र अधिकतया द्रष्टुं शक्यते तर्हि सः तदा पृच्छति पीपल् हु आर् बार्न् अट् द सेम् मिनिट् सेम् सेकेण्ड् आल्सो वै आर् देर् डिफ्रेण्ट् वेरियेशन्स् डिफ्रेण्ट् केरेक्टरिस्टिक्स् सर्वम् एतत् सर्वं यद्यपि अफ्कोर्स् देर् आर् लाट् आफ् अदर् विषयास् टु बि दिस् थिङ्ग् यद्यपि तत्र श्रद्धया अस्माभिः अर्थावगुणं कर्तुं शक्यते वासनया प्रकृतेः अपि कर्तुं शक्यते तथापि हौ इस् इट् दट् प्रूवन् दट् children who are born at the same time in the same place in the same location also even in the same hospital have different characteristics different problems different nature different bandhanas evam tatra taihi tatra arthikritam asit evam bhutani prakritim yanti bhutani prakritim so there is an inherent skill set inherent quality which is there apart from that from the jananath अद्यपर्यन्तं यावत् रीत्या तेषां तत्र कर्माकर्मं तत्र गुरुसदनं गुरु शिष्य अवगमनम् इत्यादिकं सर्वं आल् द अदर् केरेक्टरिस्टिक्स् विच् दे गेट् ओवर् फ्रम् द टैम् आफ् बर्त् टिल् दे आर् दे टिल् टुडे वाट् एवर् स्किल् सेट्स् दे अक्वैर् द केरेक्टरिस्टिक्स् क्वालिटीस् दे अक्वैर् आल् दीस् बोत् आफ् दीस् आर् क्युमुलेटिव्लि the resultant which all cumulatively they result in the activities which are happening now evam bhutani prakritim yanti so prakritya vasanaya purva vasanaya by their own guna the bhutani prakritya te karyam kurvanti that is the first line jnanavan api yakopi jnanavan purushah api swasyah prakritehah sadrisham cheshtate ईवन् अ ज्ञानवान् यः कोऽपि ज्ञानवान् भवति तथापि किं पुनर्मूर्खः ईवन् अ ज्ञानवान् आल्सो आक्ट्स् एस् पर् हिस् प्रकृति वाट् एवर् द प्रकृति इस् देर् ही आल्सो आक्ट्स् अलाङ्ग् वित् दोस् लैन्स् सो वाट् अबौट् अ मूर्ख वाट् अबौट् अ नान् ज्ञानवान् सो दट् इस् द आब्जेक्ट् अनन्तरं फैनलि द थर्ड् लैन् थर्ड् वाक्य तृतीयं वाक्यं तावत् पश्यामश्चेत् निग्रहः किं करिष्यति मम वा अन्यस्य वा यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशम् एव चेष्टते न च प्रकृतिशून्यः कश्चिदस्ति ततः च पुरुषकारस्य विषय अनुपपत्तेः शास्त्र अनर्थक्यप्राप्तौ अग्रिमश्लोकः उच्यते एवं तर्हि what is the use of any external restraint ityukte kim bhavati this does not mean a person should stop the sadhana and not have any external restraint tatra yatha nadinam pravahah bhavati nadyah sarvada sagaram prati gacchanti tatra tesham reverse reetya tatra tesham pravahah कारयितुं समुद्रात् नदी पर्यन्तं प्रवाहः कारयितुं न शक्यते। तादृशरीत्या सर्वे अपि जनाः इन्क्लूडिङ्ग् ज्ञानिनः स्वप्रकृत्या आचरणं कुर्वन्ति। एवं फोर्सिबलि निग्रहः वा सन्न्यासभावः कर्तुं न शक्यते। वाट् इस् द मीनिङ्ग्? सिम्पल्, लाट् आफ् पीपल् वेन् दे आर् हेविङ्ग् द मेडिसिन्स् दे ट्रै टु एक्स्पेरिमेण्ट् बै स्टापिङ्ग् द मेडिसिन्स् इन् बिट्वीन् एण्ड् थिङ्किङ्ग् दट् ओके ऐ थिङ्क् मै डिसीस् हेस् स्टाप्ड् ऐ एम् नाट् गेटिङ्ग् एनी प्राब्लम्स् सो लेट् मी स्टाप् द मेडिसिन्स् एस्पेशलि सम् आफ् द बीपी पेशेण्ट्स् अण्ड् इवन् डयाबिटीस् पेशेण्ट्स् सम्टैम्स् दे थिङ्क् एव्रिथिङ्ग् इस् नार्मल् लेट् मी स्टाप् द मेडिसिन् इमीडियट्लि इट् रिसल्ट्स् इन् अ बिगर् difficulty for them. Tatra karma acharanam yadi vayam tatra sthagitam kurmaha tarhi asha pashaha upari upari tatra te agatya tatra purusham marayanti tatra purusham tatra badham janayanti. Evam ritya pashyamaschete forcible nigrahaha forcible sanyasaha forcibly stopping the karma prayojanaya na bhavati yada paripakvata agachati. So we cannot give a date and time and say okay on this date on the in this time I am going to get sanyasa mumukshutvam I am going to get tatha vaktum na shakyate jhatiti inna kshana when that realization comes the people just drop everything they just go away tat kshanamatrena tatra मुक्षुत्वं सन्न्यस्तभावः आगच्छति. एवं तत्र फोर्सिबल् निग्रहरीत्या जस्ट् बै कण्ट्रोलिङ्ग् द आक्टिविटीस् अण्ड् नाट् डूयिङ्ग् द आक्टिविटीस् अण्ड् कीपिङ्ग् क्वैट् सिटिङ्ग् इन् वन् प्लेस् डस्ट् नाट् गिव् द रिसल्ट् फार् ज्ञान. सो अगेन् क्लारिफैङ्ग् दिस् कान्सेप्ट् यद्यपि पूर्वम् उक्तमस्ति अगेन् क्लारिफैङ्ग्. सो ओन्ली बै कान्स्टेण्ट् मेडिटेशन् प्राक्टिस् and doing karma every day sarvam kurvan 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 eva paripakvata agacchati ekadinam karmaacharanam neiva kartavyam iti bhavati. Just controlling externally all our senses and sitting in one place does not result in sanyasta bhava or does not result in sanyasa, which is what is being clearly clarified here. Ekavaram patantu sadrishan cheshtate svasyah prakriter jnanavanapi prakriti yanti bhutani निग्रह किं करिष्यति भूतानि प्रकृतिं यान्ति. सेंटेंस नंबर वन. ज्ञानवानपि पुरुषः स्वस्याः प्रकृतेः सदृशं एव चेष्टते. इवन अ ज्ञानवान पर्सन आल्सो इज ड्रिवन बाय हिज प्रकृति. पॉइंट नंबर थ्री. एवं देयरफॉर एक्सटर्नल रेस्ट्रेंट एंड जस्ट सिटिंग इन वन प्लेस ट्राइंग टू कंट्रोल द एक्सटर्नल ऑर्गन्स but still mentally dwelling upon those vishayavastu itself will only make you a mithyachara and will not make you a vishishta purusha or a sadhaka or a sitapragna or a jnanavan. Evam external nigraha kim karishyati kimapi na karishyati prayojanaya na bhavati kevalam nashtaya bhavati ityarthah. Jnatam kila. अग्रे पश्यन्तु श्लोका नंबर 34 पश्यामः. इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ. ओके अंडरस्टुड कृष्ण. यू आर टेलिंग मी दैट वी विल डू इट बाय प्रकृति बट व्हाट इज द प्रोबेबिलिटी और व्हाट इज द थिंग दैट वी विल थ्रू प्रकृति वी गो ऑफ टू अ रॉन्ग पाथ and not keep going in the right path what you said. So what should we be aware of, what should we be beware of? Tatra cautionary, how should we be very very alert iti prishte sati, and what should we do so that we attain the bondage of this purva janmarjita karma dharma dharma all these vasana. If we have to overcome our vasana, then what should we do? Kim kartavyam iti prishte sati. If that is the question which Arjuna might ask, 34 is the answer. Ekavaram shlokam pattantu. Indriyasyendriyasyarthe ragadveshau vyavasthitau tayorna vashamagacche tauhyasya paripanthinau. Paripanthi ಪರಿಪಂಥಿ ಅರಯಃ ಎನಿಮಿಸ್. ಪರಿಪಂಥಿ ಇತ್ಯುಕ್ತೆ ಎನಿಮಿಸ್, ಶತ್ರವಃ. ಏವಂ ಪರಿಪಂಥಿನೋ ಇತ್ಯುಕ್ತೆ ಶತ್ರವಃ. ಸೊ ಹೂ ಆರ್ ದೀಸ್ ಎನಿಮಿಸ್? ಅಗೇನ್ ಯುದ್ಧಸ್ವ ವಿಗತ ಜ್ವರ ವಿಸಾ. ವಾಟ್ ಇಸ್ ದ ಮೀನಿಂಗ್ ಆಫ್ ದ ವರ್ಡ್ ಯುದ್ಧಸ್ವ? ಸ್ಟಾರ್ಟ್ ಫೈಟಿಂಗ್ ದ ವಾರ್. ಟುಡೇ ವಿ ಡೋಂಟ್ ಹ್ಯಾವ್, ವಿ ಡೋಂಟ್ ನೀಡ್ ಟು ಫೈಟ್ ಎಕ್ಸ್ಟರ್ನಲ್ ವಾರ್ಸ್. ವಿ ಹ್ಯಾವ್ ಲಾಟ್ ಆಫ್ ಇಂಟರ್ನಲ್ ವಾರ್ಸ್ ಇಟ್ ಸೆಲ್ಫ್ ವಿಚ್ ಹ್ಯಾವ್ ಟು ಬಿ ಫಾಟ್. ವೆರಿ ಚಿತ್ರ ರೀತಿಯ, ಇನ್ ಅ ವೆರಿ ವೆರಿ ಕ್ರಿಯೇಟಿವ್ ವೇ, ದ ಫೋರ್ ಯುಗಾಸ್ ಅಂಡ್ ದ ಪ್ರೆಸೆನ್ಸ್ ಆಫ್ ಎನಿಮೀಸ್ ಹ್ಯಾಸ್ ಬೀನ್ ಡಿಸ್ಕ್ರೈಬ್ಡ್. ಕೃತಯುಗೆ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಯು ಹ್ಯಾಡ್ ಆಲ್ ದ ಅಸುರಾಸ್ ಇನ್ ಡಿಫರೆಂಟ್ ಲೋಕಾಸ್, ದೇ ವೇರ್ ಇನ್ ಡಿಫರೆಂಟ್ ವರ್ಲ್ಡ್, ಪಾತಾಳ ಲೋಕೆ, ಉಪರಿ ನರಕ ಲೋಕೆ ಇತ್ಯಾದಿ ಸ್ಥಳೇಶು ಅಸುರಾಹ ಆಸನ್, ತೇಷಾಂ ನಶಃ ಭಗವಾನ್ ಕೃತವಾನ್. ತ್ರೇತಾಯುಗೆ ಕಿಮ್ ಅಭವತ್? ಅಸುರ ರಾವಣ ವಾಸ್ ಇನ್ ಅ ಡಿಫರೆಂಟ್ ಕಂಟ್ರಿ, ಸೊ ರಾಮ ವೆಂಟ್ ಟು ದಟ್ ಕಂಟ್ರಿ ಅಂಡ್ ಕಿಲ್ಡ್ ಪೀಪಲ್. ಇನ್ ದ್ವಾಪರ ಯುಗೆ ಕಿಮ್ ಅಭವತ್? ದ ಅಸುರ ವಾಸ್ ಇನ್ ದ ಸೇಮ್ ಕಂಟ್ರಿ, ಭಾರತೇವ ಶಿಶುಪಾಲ ಕಂಸ ಇತ್ಯಾದಯ ಸರ್ವೇ ಭಾರತೇಯೇವ ಆಸನ್, ಸೊ ದೇ ಕೇಮ್ ಟು ಅವರ್ ಕಂಟ್ರಿ ಇಟ್ ಸೆಲ್ಫ್, ದೇರ್ ಹೀ ಕಿಲ್ಡ್ ದೆಮ್. ಇನ್ ಕಲಿಯುಗ ವಾಟ್ ಈಸ್ ಹ್ಯಾಪನಿಂಗ್? ಆಲ್ ರಾವಣಾದೇಹ, ಶಿಶುಪಾಲಾದೇಹ, ಕುಂಭಕರ್ಣಾದೇಹ, ಕಂಸಾದೇಹ, ದೇ ಆರ್ ಪ್ರೆಸೆಂಟ್ ಬೋತ್ ಇನ್ ಅವರ್ ಓನ್ ಫ್ಯಾಮಿಲೀಸ್ ಅಂಡ್ ಇನ್ ಅವರ್ ಸೆಲ್ಫ್ಸ್ ಓನ್ಲಿ. ಸೊ ಭಗವಾನ್ ಕೆನಾಟ್ ಟೇಕ್ ಒನ್ ಅವತಾರ ಅಂಡ್ ಕಿಲ್ ಎವ್ರಿಬಡಿ, ಹಿ ಹ್ಯಾಸ್ ಟು ರಿಸೈಡ್ ಇನ್ ಎವ್ರಿಬಡೀಸ್ ಆತ್ಮ ಅಂಡ್ ಕಿಲ್ ಪೀಪಲ್ಸ್ ಶಿಶುಪಾಲತ್ವ, ಕಂಸತ್ವ, ರಾವಣತ್ವ, ವಿದಿನ್ ವಾಟ್ ಎವರ್ ಇಸ್ ದೇರ್ ವಿದಿನ್ ಅಸ್, ಹಿ ಹ್ಯಾಸ್ ಟು ಕ್ಲೆನ್ಸ್ ಈಚ್ ಒನ್ ಆಫ್ ಅಸ್ ಅಂಡ್ ಇನ್ ಈಚ್ ಫ್ಯಾಮಿಲಿ, ಇನ್ ಈಚ್ ಪ್ಲೇಸ್, ಈ ಆರ್ಗನೈಸೇಷನ್ ವಿ ಹ್ಯಾವ್ ಲಾಟ್ ಆಫ್ ಅಸುರಾಸ್ ಹೂ ಹ್ಯಾವ್ ಟು ಬಿ ಕಿಲ್ಡ್ ಅಂಡ್ ರಿಮೂವ್ಡ್. ದೇರ್ ಫೋರ್ ಕಲಿಯುಗ ತತ್ರ ವೆರಿ ವೆರಿ ಸಿಗ್ನಿಫಿಕೆಂಟ್ ಭವತಿ. ಏವಂ ತತ್ರ ಡಿಫರೆನ್ಸ್ ಬಿಟ್ವೀನ್ ದ ಯುಗಾಸ್ ಅಂಡ್ ಹೌ ದ ಅಸುರಾಸ್ ಆರ್ ರಾಕ್ಷಸಾಸ್ ಆರ್ ದೇರ್, ತತ್ರ ಏವಮೇವ ಚಿತ್ರರೀತ್ಯ ಕಾವ್ಯರೀತ್ಯ ಉಕ್ತಂ ಭವತಿ. ಏವಂ ತತ್ರ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಪರಿಪಂಥಿನೌ ಎನಿಮಿಸ್, ತದರ್ಥಂ ಅಸ್ಮಾಭಿಃ ಉಕ್ತಮಸ್ತಿ. ಏಕವಾರಂ ಪಶ್ಯಂತು, ಅನ್ವಯಂ ಚಿಂತಯಂತು. ಇಂದ್ರಿಯಸ್ಯೇಂದ್ರಿಯಸ್ಯಾರ್ಥೇ ರಾಗದ್ವೇಷೌ ವ್ಯವಸ್ಥಿತೌ ತಯೋರ್ನವಶಮಾಗಚ್ಛೇತ್ ತೌಹ್ಯಸ್ಯ ಪರಿಪಂಥಿನೌ. ಇಂದ್ರಿಯಸ್ಯ ಅರ್ಥೇ ರಾಗದ್ವೇಷೌ ವ್ಯವಸ್ಥಿತೌ ತಯೋಃ ವಶಂ ನ ಆಗಚ್ಛೇತ್ ತೌಹಿ ಅಸ್ಯ ಪರಿಪಂಥಿನೌ. ರಾಗ ದ್ವೇಷವು, ಅಗೇನ್ ರಾಗ ದ್ವೇಷ ರೆಪ್ರೆಸೆಂಟ್ಸ್, ರಾಗ ರೆಪ್ರೆಸೆಂಟ್ಸ್ ಕಾಮ, ದ್ವೇಷ ರೆಪ್ರೆಸೆಂಟ್ಸ್ ದ ಕ್ರೋಧ ಫಾರ್ಮ್ ಆಫ್ ಇಟ್. ಟೂ ಎಂಟೈರ್ ಎಪಿಕ್ಸ್ ಹ್ಯಾವ್ ಬೀನ್ ಡೆಡಿಕೇಟೆಡ್ ಟು ದಿಸ್, ರಾಮಾಯಣ ರಾವಣ ರಾಗಾರ್ಥಂ, ರಾಗ ಕಾಮ that is for ramayana which talks about the problems of raga, mahabharata duryodhana dvesha towards krodha towards his own relatives dvesha what happened to him we know. Two full epics have been depicted just to explain this small concept of raga dveshau vyavasthitau. Indriyasya indriyasya arthe, each of the sense are rooted, each of the sense objects, pratyekam indriyam api, we have seen karmendriya, jnanendriya, manaha, ahankara, buddhihi, ityarikam sarvam asmabhi drishtamasti, all they are rooted deeply in raga dveshav, in raga and dveshav, vyavasthitav is deeply rooted in raga and dvesha. So each of our indriya are deeply rooted in raga and dvesha. So what we should do is very very carefully, these internal enemies who are there, both of them, we should tayoho vasham na agachet, they are the cause of every problem which happens. Evam tayoho vasham na agachet, why tayoho vasham kimartham na agantavyam, because, my dear friend, they are the only direct internal enemies who are residing within you. So, obviously, you have to be very, very careful about them, and you should be very careful not to get caught within them. Iti tatra samyak pratipaditam bhavati. Agre, even in the coming shlokas, what is every place will have two doors which will open. So, one sadhaka asks, what are the two doors for naraka? So, to go to hell, what are the two doors? Which are the two doors I have to open? Immediately the reply came, door number one, the name of the door number one is called kama, the name of the door number two is called krodha. Open both of these or any one of these, you will directly go to naraka only. Simple. Naraka means what? Again, naraka can be understood as a place where we experience sufferings. Narakam kama krodhena asmin janmani, in our own place, in our own location, in our own workplace, in our own house place, in our own areas, in our own organizations, kama krodhena tatra dukkham bhavati tena narakasya anubhavaha atraiva bhavati. Sarvada naraka again can be understood the sufferings which we have here only because of kama and krodha. So ragadvesho vyavasthito tayor vasham na agachet tauhyasya paripanthinau. Even in Ramayana, once in Sundarakanda, yada tatra Hanuman kinchit krodhi krodha vashah bhutva lanka dahanam karoti anantaram saha chintayati mata api maya dagdha vasyat. Oh, by burning the whole Lanka, probably even Sita Mata would have been affected. Oh, how have we, how, because of krodha, what a bad thing have done. Yathoragas tvacham jirnah savai purusha uchyate yaha samutpatitam krodham kshamayaiva nirasyati yathoragas tvacham jirnah savai purusha uchyate. So apicha krodha vashena yaha purusha bhavati tasya akaryam va avachyam va kimapi na bhavati. He will not have anything which is not to be told. Even naraha sadhu na dikshipet. Even good people, he will start scolding. He will start hurting good people. All these are happening because of ragadveshav. Evam tayor navashama agachet kadapi tesham vasha na agantavyam. Iti again cautionary statement Shri Krishnena dattamasti. While doing the karma, sometimes kama krodhadayaha agachanti. But tayor vasham na agachet, because why do even knowledgeable people do mistakes? Because they know that, but when sometimes they are overpowered by kama krodha and they are made to act in a situation which they will not like to act, but they are made to act like that. Therefore tesham vasham na agachet. एकवारं श्लोकं पठन्तु अर्थावगमं भूत्वा इति पश्यामः इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्नवशमागच्छेत् तौह्यस्य परिपन्थिनौ. इन्द्रियस्य इन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ. ऑल द सेंस ऑब्जेक्ट्स विच आर देयर आर डीपली रूटेड इन राग एंड द्वेष. तदर्थं मनुष्यः तयोः वशं न आगच्छेत् यतः हि तौ अस्य सर्वदा परिपंथिनौ. साधक मार्गे दे आर ऑब्स्टेकल्स एंड एनिमीज हु प्रिवेंट अ मैन फ्रॉम गोइंग टुवर्ड्स द साधना मार्ग. एवमेव अस्माभिः दृष्टमस्ति. आगामी कक्षायां अग्रिम श्लोकान् पश्यामः. गुरुरेव गतिः गुरुमेव भजे गुरुणैव